अथ षष्ठः स्कन्धः
अथ चतुर्दशोऽध्यायः परीक्षिद्वाच रजस्तमः स्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः नारायणे भगवति कथमासीत् दृढा मतिः देवानां शुद्धसत्त्वानां ऋषीणां चामलात्मनां भक्तिर्मुकुन्दचरणेन प्रायणोपजायते रजोभिः समसंख्यातः पार्थिवैरिहजन्तवः तेषां ये केचनेऽहं ते श्रेयो वै मनुजादयः प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तमा मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिद्ध्यति मुक्तानामपि सिद्धानां नारायणपरायणः सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने वृत्रस्तु स कथम् पापः सर्वलोकोपतापनः इत्थम् दृढमतिः कृष्णे आसीत् सङ्ग्रामरूपणे अत्र नः संशयो भूयात् श्रोतुम् कौतूहलम् प्रभो यः पौरुषेण समरे सहस्राक्षमतोषयत् श्रुत उवाच परीक्षितोऽथ सम्प्रश्नम् भगवान् बादरायणी निशम्य श्रद्धधानस्य प्रतिनन्दवच ब्रवीत् श्रीशुक उवाच श्रुणस्वावहितो राजनितिहासमिमम् यथा श्रुतम् द्वैपायनमुखान्नार्द देवलादपि आसीद् राजा सार्वभौम श्रुतसेनेषु वै नृप चित्तकेतुरिति ख्यातो यस्यासीत् कामधूमहि तस्य भार्या सहस्राणाम् सहस्राणि दशा भवन् सन्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् रूपौदार्जवयो जन्म विद्यैश्वर्यश्रियादिभिः सम्पन्नस्य गुणाय सर्वैश्चिन्ता वन्द्यापतेरभूत् न तस्य सम्पदः सर्वा महिष्यो वामलोचनः सार्वभौमस्य भूस्थेयम् अभवन् प्रीतिहेतवः तस्यैकदा तु भवनम् अङ्गिरा भगवान् ऋषिः लोकाननुचरणेतम् उपागच्छच्चदिच्छया तम् पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः कृतातिथ्यमुपासीद सुखासीनम् समाहितः महर्षिस्तमुपासीनम् प्रश्रयावनतम् क्षितौ प्रतिपूज्य महाराज समभाष्येदमब्रवीत् अङ्गिरा उवाच अपि तेनामयम् स्वस्ति प्रकृतीनाम् तथात्मनः यथा प्रकृतिभिर्गुप्तः पुमान् राजापि सप्तभिः आत्मानम् प्रकृतिश्रद्धा निधाय श्रेयाप्नुयात् राज्ञा तथा प्रकृतयो नर्देवा हिताधयः अपि दारः प्रजामात्या भृत्या श्रेण्योक्तमन्त्रिणः पौराजान् पदा भूपा आत्मजा वशवर्तिनः यस्यात्मानुवशश्चित् स्यात् सर्वे तद्वशगायिने लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः आत्मनः प्रियतेनात्मा परतः स्वत एव वा लक्ष्यलब्धकामम् त्वाम् चिन्तया सबलम् मुखम् एवम् विकल्पितो राजन् विदुषा मुनिनापि सह प्रश्रयावनतोभ्याः प्रजा कामस्तु चित्रकेतुर्वाच भगवन् किम् न विदितम् तपोज्ञानसमाधिभिः योगिनाम् ध्वस्तपापानाम् बहिरन्तः शरीरिषु तथापि पृच्छतो ब्रूयाम् ब्रह्मणात्मनि चिन्तितम् भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया लोकपालैरपि प्रार्थ्या सम्राज्यैश्वर्यसम्पदः न नन्दयन्त्यप्रजम् माम् क्षुत्रिकामव्यापरे ततः पाहि महाभाग पूर्वैः सह गतम् तमः यथा तरेम दुस्तारम् प्रजया तद्विधेहिनः श्रीशुक उवाच इत्यर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः श्रपयित्वा चरुन्त्वाष्टम् त्वष्टारामयजद्विभु ज्येष्ठा श्रेष्ठा च याराग्यो महिषीणां च भारत नाम्ना कृतज्ञस्तस्यै यज्ञोच्छिष्टमदा द्विज अथा नृपतिं राजन् भवितैकस्तवात्मजः हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसूत्रजयम् सापि तत्प्राशनादेव चित्रकेतोरधारयत् गर्भम् कृतदितिर्देवी कृतिकाग्नेरिवात्मजम् तस्य अनुदिनम् गर्भ शुक्लपक्षैवोडुपः बभृधे शूरसेने स तेजशासनकर्दृप अथ कालोपावृत्ते कुमारः समजायत जनयन शूरसेनानाम् शृण्वताम् परमामुदम् हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः वाचयित्वा शिशो विप्रय कारयामास जातकम् तेभ्यो हिरण्यम् रजतम् वासंस्याभरणानि च ग्रामान् हयान् गजान् प्रादाधेनूनाम् अर्बुदानि च बवर्षकाममन्येषाम् पर्जन्यैव देहिनाम् धन्यम् जशस्यम् आयुष्यम् कुमारस्य महामनः कृच्छ्रलब्धेथ राजर्षे तमे अनुदिनम् पितुः यथा निः स्वस्य कृच्छ्राप्ते धने स्नेहो नो वर्धत मातुस्त्वपितराम् पुत्रे स्नेहो मोहसमुद्भवः कृतद्युते स पत्नीनाम् प्रजा कामज्वरो भवत् चित्रकेतोरपि प्रीतिर्यथा दारे प्रजावती न तथान्येषु संयज्ञे बालम् लालयतोन्महम् ता परितप्यनात्मानम् गर्हयन्तोऽभ्यसूया आनुपत्तेन दुःखेन राज्ञो नादरणेन च धिगप्रजाम् स्त्रियम् पापाम् पत्युश्च गृहसम्मताम् सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम् दासीनाम् कोन सन्तापः स्वामिनः परिचर्यया अभीक्ष्णम् लब्धमानानाम् दास्या दासीव दुर्भगः एवम् सन्दह्यमानानाम् सपत्न्या पुत्रसम्पदा राज्ञसम्मतवृत्तीनाम् विद्वेषो बलवानभूत् विद्वेषनष्टमतया स्त्रियो दारुणचेत् सगरम् ददुः कुमाराय दुर्मर्षा नृपतिम् पति कृतदिति रजानन्ति सपत्नीनामघम् महत् सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद् गृहे शयानम् सुचिरम् बालमुपधार्य मनीषिणे पुत्रमानय मे भद्रे इति धात्रीमचोदयत् सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् प्राणेन्द्रियात्मभिस्त्यक्तम् हतास्मित्यपतद्भुवि तस्यास्तदा कर्णभृशातुरम् स्वरम् घ्नन्त्यः कराभ्यामुरुच्चकैरपि प्रविश्य राज्ञी त्वरयात्मजान्तिकम् ददर्श बालम् सहसा मृतम् सुतम् पपात भूमौ परिवृद्धया शुचा ममोह बिभ्रष्ट शिरोरुहाम्बरा ततो नृपान्तः पुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् आगत्य तुल्य व्यसन स दुःखितास्ताश्च व्यलीकम् मृदुः कृतागसः श्रुत्वा मृतम् पुत्रमलक्षितान्तकम् विनष्ट दृष्टिः प्रपतम् स्खलम् पथि स्नेहानुबन्धय धितया शुचा भृशम् विमूर्छितो नोपकृतिर्द्विजैर्वृतः पपात बालस्य सपादमूले मृतस्य विश्वस्त शिरोरुहाम्बरः दीर्घम् श्वसन् बाष्पकलोपरोधतो निरुद्ध कण्ठो न शशाक भाषितुम् पतिम् निरीक्षोरुशुचार्पितम् तदा मृतम् च बालम् सुतमेक सन्ततिम् जनस्य राज्ञी प्रकृतेश्च हृदृजम् सती दधाना विल्लापचित्रदा स्तनद्वयम् कुङ्कुमगन्धमण्डितम् निषिञ्चति सञ्जनबाष्पबिन्दुभि विकीर्य केशान् विगलत्स्रजा सुतम् शुशोच चित्रम् कुरदीव सुस्वरम् अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्या प्रतिरूपमीहसे परेणु जीवत्यपरस्य या मृतिर्विपर्ययश्चेत्त्वमसि ध्रुवः परः नहीं क्रमश्चेद्य मृत्यु जन्मनो शरीर ऋणामस्तु तदात्म कर्म भी यह स्नेह पाशो निज सर्ग विर्दये स्वयं कृतस्ते तमिम विवृष्टसी तम तात नारहसी च मां कृपणा मना था त्यक्तुम विचक्षु पितरम तव शोक तप्तम अंजस्तरेम भवता प्रज दुस्तरम यद ध्वांतम न याह्य करुणेन यमेन दूरम उत्तिष्ठता इमे शिशवो वयस्याहात्वमाहुयंत निर्पनंदन संविहर्तुम सुप्तश्चिरं यशनया च भवान् परीतो भुङ्क्ष्वास्तनं विवक्षुषो हरनः स्वकानन् नाहं तनुज ददृशे हतमङ्गला ते मुग्धस्मितं मुदितवीक्षणमाननाब्जम् किं वा गतोऽस्य पुनरन्वयमन्यलोकम् नीतो घृणेन न शृणोमि कलागिरस्ते शिशुकवाच बिलपन्त्यामृतम् पुत्रमिति चित्रविलापनय चित्रकेतुर्भृशम् तत्त्वमुक्तकण्ठोरुरोदः तयोर्बिलपतोः सर्वे दम्पत्योस्तदनुवृतः रुदुस्म नरा नार्य सर्वमासीदचेतनम् एवम् कस्मल्मापन्नम् नष्टसंज्ञमनायकम् ज्ञात्वाङ्गिरा नामुनिराजगामाशनारदः इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितां षष्ठस्कन्धे चित्रकेतु विलापो नाम चतुर्दशोऽध्यायः।